प्रद्युम्नोरुक्मिणेयस्स खलु तव कला शम्बरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरत् रुक्मिकन्यां च धन्या तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहत् रोचनां रुक्मिपुत्रौत्रीम् तत्रोद्वाहे गतस्त्वन्यवधिमुसलिना रुक्म्यपि द्यूतवैरात् बाणस्य सा बलिसुतस्य सहस्रबाहोः माहेश्वरस्य महिता दुहिता किलोषा त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराभूत् योगिन्यतीव कुशला खलु चित्रलेखा तस्या सखी विलिखति तरुणानशेषान् तत्रानिरुद्धमुषया विदितन्निशायाम् आनेष्टयोगबलतो भवतो निकेतात् कन्यापुरे दयितया सुखमारमन्तम् चैनं कथञ्चन बबन्धु शिशर्वबन्धौ श्रीनारदोक्ततदुदन्तदुरन्तरोषैः त्वन्तस्य शोणितपुरैर्यदुभिर्न्यरुन्धाः कुरीपालशैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे महाप्राणो बाणो झटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे निरुद्धाशेषास्त्रे मुमुहुषितवास्त्रेण गिरिशे धृता भूता भीताः प्रमथकुलवीराः प्रमथिताः परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः सकुम्भाण्डो भाण्डं नवमिव बलेनाशुभिधे चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरित् त्वज्वरेण ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोगा प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः बाणन्नारायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन् नेर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियन्तम् मुक्त्वा तद्दत्तमानो निजपुरमगमः सा निरुद्धः सहोषः मुहुस्तावच्छक्रं वरुणमजयोनन्दहरणे यमं बालानीतौ दवदहनपाने निलसखम् विधिं वत्सस्तेह्ये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते विचरुषा कृकलासवपुर्धरं मृगनृपं त्रिदिवालयमापयन् निजजने द्विजभक्तिमनुत्तमाम् उपदिशन् पवनेश्वर पाहि माम् सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन् नमस्ते।